इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। सद्य एव घोषितेषु नेक्स्ट जनरेशन जीएसटी परिष्काराणां विषये बिहारे प्रवदन् प्रधानमन्त्रिणा उक्तं यत् दीपावली छठ इत्यादयः उत्सवाः आगमिष्यन्ति चेत् अधिकांश दैनिक उपयोग वस्तुभ्यः महत्वपूर्ण रूपेण जीएसटी न्यूनीकरणं भविष्यति। सभायाम् उपस्थित महिला समूहं संबोधयन् श्रीमोदी अवदत् यत् जीएसटी इत्यस्य न्यूनीकरणेन पाकशालायाः व्ययः पर्याप्तरूपेण सुलभः भविष्यति। दैनिक वस्तूनि विविधाः खाद्यपदार्थाः च निम्नमूल्येषु प्राप्यन्ते। सः अवदत् यत् अस्मिन् उत्सवे बालानां कृते नूतनानि वस्त्राणि पदत्राणानि च क्रेतुं सुलभं भविष्यन्ति। प्रधानमन्त्री दृढतया अवोचत् यत् यदा सर्वकारः वस्तुतः निर्धनानां विषये चिन्तां करोति तदा एतादृशं प्रभावपूर्णम् उपायं करोति। प्रधानमन्त्री नरेन्द्रमोदी ह्यः बिहारस्य पूर्णिया जनपदात् 40,000 कोटिरूप्यकाणां बहुविधविकासपरियोजनानाम् उद्घाटनं शिलान्यासञ्च कृतवान्। जनपदस्य गुलाबबागस्य सीशाबाडी इत्यत्र जनसमूहं सम्बोधयन् प्रधानमन्त्री अवदत् यत् बिहारस्य जनानां जीवनं सुकरं कर्तुं डबल इंजन सर्वकारः निरन्तरं कार्यं कुर्वन् अस्ति इति।
बिहार के विकास के लिए करीब 40,000 करोड़ रूपया की परियोजनाओं का लोकार्पण और शिलान्यास हुआ है। रेल, एयरपोर्ट, बिजली, पानी से जुड़ी ये परियोजनाएं सीमांचल के सपनों को पूरा करने का माध्यम बनेगी। आज यहाँ 40,000 से ज्यादा लाभार्थियों को पीएम आवास योजना के तहत पक्का घर भी मिला। इन 40,000 परिवारों के जीवन में आज एक नई शुरुआत हुई है।
ततः पूर्वं ह्यः नवनिर्मितस्य पूर्णिया विमानस्थानकस्य उद्घाटने श्रीमोदी अवदत् यत् पूर्णिया इदानीं देशस्य विमानयानमानचित्रे आगतम् इति। एतेन विमानस्थानकेन पूर्णियानगरात् देशस्य अनेकेषु भागेषु अन्ताराज्यीय विमानसेवाः आरभ्यन्ते। प्रधानमन्त्री मोदी बिहार राज्ये राष्ट्रिय मखाना बोर्ड इत्यस्यापि उद्घाटनम् अकरोत्। परिषद उत्पादनस्य नूतन तन्त्रज्ञानस्य च विकासं प्रवर्धयिष्यति। सस्योत्पादनानन्तरं प्रबन्धनं सुदृढं करिष्यति। मूल्यवर्धनं प्रक्रियां च प्रोत्साहयिष्यति। विपणनं निर्यातं ब्राण्ड विकासं च सुकरं करिष्यति, येन बिहारस्य सम्पूर्णे देशे च मखाना कृषकाः लाभान्विताः भविष्यन्ति। विद्युत्क्षेत्रे प्रधानमन्त्रिणा भागलपुरस्य पीरपैति इत्यत्र 24% यावत् मेगावाट् तापविद्युत् परियोजनायाः शिलान्यासः कृतः। सः कोसी मेची राज्यान्तर्गतं नदी सम्पर्क परियोजनायाः प्रथमस्य चरणस्य शिलान्यासम् अपि कृतवान्। रेलक्षेत्रे प्रधानमन्त्रिणा अनेकासां परियोजनानाम् उद्घाटनं शिलान्यासं नूतनानां रेलयानानां ध्वजप्रदर्शनं च कृतम्। केन्द्रीय गृहमन्त्री अमितशाहः अद्य नवदिल्ल्यां एण्टी नार्कोटिक्स टास्क फोर्स बलस्य राज्यप्रमुखानां केन्द्रशासित प्रदेशानां च द्वितीय राष्ट्रिय सम्मेलनस्य उद्घाटनं करिष्यति। सम्मेलनमिदं प्रधानमन्त्रिणः नरेन्द्रमोदिनः मादकद्रव्यमुक्त भारतस्य प्रतिबद्धतां सुदृढं कर्तुं तथा एतल्लक्ष्यं साधयितुं मार्गचित्रं निर्मातुं च रणनीतिकमञ्चरूपेण कार्यं करिष्यति। नेपालदेशस्य युवनेतृत्वस्य तीव्रतमस्य विद्रोहस्य अनन्तरं सर्वकारेण जेन्जी आन्दोलने मृतकानां परिवारेभ्यः सहयोगराशेः घोषणा कृता। श्वः आयोजिते मन्त्रिमण्डलस्य सभायाम् एषः निर्णयः स्वीकृतः। गृहविधिमन्त्रिणा ओमप्रकाश अर्यालेन उक्तं यत् प्रत्येकस्य हुतात्मस्य परिवाराय 15,00,000 रूप्यकाणि क्षत्यापूर्तिरूपेण प्रदीयन्ते। एशियाकप क्रिकेट क्रीडायां गतरात्रौ श्रीलंकादलेन दुबई अन्ताराष्ट्रिय क्रीडाङ्गणे हांकांग दलं 4-2 पराजितम् इति वार्ताः।